नवम वर्षम नवम हर्षम नवाच सुख संपदा अब्दोयम शोभन यातु नवैषा कामना शुभा अयि सुधे श्रोतारः। अस्य आंग्ल वर्षस्य अनया अन्तिमया संस्कृत साप्ताहिकीति पत्रिकया सह उपस्थितोऽहं पुनीत त्रिपाठी। श्रोतारः, वर्षमिदं शुभाशुभवार्ताभिः सह सम्पन्नतां याति। अस्मदीया परंपरा मंगलाचरणत्रयस्य अस्ति, यतो हि वयम् आदौ मध्ये अन्ते च मंगलाचरणं कुर्मः। तदनुसारम् अस्याब्दस्य अन्तिममंगलकामनायुतं शुभाशितमादाय समुपस्थितास्ति अस्मदीया सहयोगिनी ऋचा झा।
गतं पापं गतं दुःखं गतं दारिद्र्यमेव च आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात्। अर्थात, हे प्रभु, आपके दर्शन से हमारे सभी पाप दुख और दरिद्रता दूर हो जाते हैं और सुख संपत्ति पुण्य प्राप्त होते हैं।
प्रिय मित्राणि, अग्रे सरामः। संप्रति प्रसंग प्रभागं प्रति यत्र सुमधुर स्वरेण प्रसंगं गायति अस्मदीया सहयोगिनी रिंकू जोशी।
प्रातः स्मरामि ललितावदनारविन्दम् बिम्बाधरं पृथुलमौक्तिकशोभिनासम् आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमधोज्ज्वलफालदेशम्। प्रातर्भजामि ललिताभुजकल्पवल्लीं रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्यां माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षु चापकुसुमेषु सृणीर्दधानाम्। प्रातर्नमामि ललिताचरणारविन्दम् भक्तेष्टदान निरतं भवसिन्धुपोतं पद्मासनादि सुरनायक पूजनीयं पद्मांकुशध्वज सुदर्शन लाञ्छनाढ्यं। प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्त वेद्य विभवां करुणानवद्यां वैश्वस्य सृष्टि विलयस्थिति हेतुभूतां विद्येश्वरीं निगमवां मनसाति दूराम्। प्रातर्वदामि ललिते तव पुण्यनाम कामीश्वरीति कमलेति महेश्वरीति श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति। यः श्लोक पञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम्।
अयि सम्मान्याः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थितास्ति अस्मदीया सहयोगिनी मुदिता वेतालः।
प्रधानमंत्री नरेंद्र मोदी उत्तर प्रदेशस्य लखनऊ नगरे दिसंबर 25 राष्ट्रीय प्रेरणास्थलस्य उद्घाटनम् अकरोत्। राष्ट्रीय प्रेरणास्थले पूर्व प्रधानमंत्रिणः अटल बिहारी वाजपेयिनः दीनदयालोपाध्यायस्य डॉक्टर श्यामा प्रसाद मुखर्जिनश्च प्रतिमाः सन्ति। बांग्लादेशे राजनीतिक ओहापोहस्य मध्ये पूर्व प्रधानमन्त्रिणः खालिदा जियायाः पुत्रः तारिक रहमानः लन्दनतः प्रत्यागतः। असौ आगामि निर्वाचने बीएनपी दलस्य प्रधानमन्त्री प्रत्याशी भविष्यति। धन्यवादः।
अयि संस्कृत सेवारताः प्रियाः श्रोतारः, साप्ताहिकी वार्तानन्तरं पुनः उपस्थितोऽस्मि ज्ञान विज्ञान प्रभागान्तर्गतम् एकम् साक्षात्कारमादाय। अस्माभिः साकम् संवादाय उपस्थितोऽस्ति अस्मदीया सहयोगिनया डॉक्टर साधना शर्मणा इत्यनया सह विशिष्टातिथिः भारतीय पुरातत्व सर्वेक्षणे अतिरिक्त महानिदेशकः डॉक्टर आलोक त्रिपाठी वर्यः। मन्येहं यत् अनेन संवादेन भवन्तः सर्वे निश्चयमेव लाभान्विताः भविष्यन्ति। तर्हि आगच्छन्तु श्रुण्मः साक्षात्कारोऽयम्।
नमो नमः। आकाशवाण्यां संस्कृत साप्ताहिक्याः ज्ञान विज्ञान अंशे अहं डॉक्टर साधना शर्मा भवतां सर्वेषां हार्दिकं स्वागतं करोमि। अद्य अस्माभिः सह संवादाय सन्ति भारतीय पुरातत्व सर्वेक्षणस्य अपर महानिदेशकाः प्रख्याताः इतिहासाचार्याः समुद्रस्य विषये तथा जल निमग्न पुरातत्वस्य च विषये अग्रगण्याः विशेषज्ञः डॉक्टर आलोक त्रिपाठी महोदयः। भवन्तः वाराणस्याः ज्ञानवापी परिसरे सर्वेक्षण दलस्य नेतृत्वं कुर्वन्ति, तथैव अंडर वाटर आर्कियोलॉजिकल विंग इत्यस्य अध्यक्षरूपेण अनुसन्धानं नवदिशां दत्तवन्तः। प्रिंस रॉयल जलयानस्य अवशेषाणाम् अन्वेषणं भवतां महत्वपूर्णाः उपलब्धयः सन्ति। महोदय, स्वागतं श्रीमतां।
नमस्कारः। आकाशवाण्याः संस्कृत साप्ताहिकी कार्यक्रमे संलग्नेभ्यः सदस्येभ्यः श्रोतृभ्यः च सादरम् अभिवादये। अहं संस्कृतं पठामि, शृणोमि, लिखामि च। एतेषु क्षेत्रेषु मम सततम् अभ्यासः अस्ति, किन्तु अहं वक्तुं पारङ्गता न। अतः यदि मम भाषणे किञ्चित् स्खलं भवति तर्हि अहं पूर्वमेव क्षमा प्रार्थये।
महोदय, यद्यपि भवद्भिः अभिवादने एव संस्कृतभाषायाम् आत्मीयनिष्ठा दर्शिता, किन्तु तथापि जिज्ञासा वर्तते यत् संस्कृतभाषायां भवतः निष्ठा कीदृशी।
एतत् कथनं कथमपि अनुचितं नास्ति यत् अस्माकं प्राचीनतमः लिखितः इतिहासः संस्कृतभाषायामेव सुरक्षितः अस्ति। संस्कृतग्रन्थेषु ऐतिहासिकतथ्यानां विशालं बहुविधं भाण्डारम् उपलब्धं वर्तते। यदि प्राचीनभारतस्य इतिहाससम्बद्धाः सूचना सम्यक् रूपेण एकत्र कर्तुम् इच्छामः तर्हि संस्कृतग्रन्थानाम् अध्ययनम् अत्यन्तम् अनिवार्यम् अस्ति। संस्कृतसाहित्ये इतिहासेन सह एव अस्माकं प्राचीनं ज्ञान विज्ञानं कला शिल्पं तन्त्रज्ञानं पर्यावरणचिन्तनं चिकित्साविज्ञानं भूगोलशास्त्रं च एतेषां सर्वेषां मूलसूचनाः निहिताः सन्ति। एतानि सर्वाणि अस्माकम् अतीतं समग्ररूपेण ज्ञातुं महत्वपूर्णानि साधनानि भवन्ति। अतः इतिहास संस्कृतभाषा च पृथक् न, इतिहासः संस्कृत विना अपूर्णः एव भवति। अहं तु संस्कृतसाहित्यम् इतिहासस्य एकं महत्वपूर्णं श्रोतरूपेण एव पश्यामि।
महोदय, भवद्भिः प्रतिपादितं यत् संस्कृतसाहित्यम् इतिहासस्य प्रमुखं प्रामाणिकं च स्रोतः वर्तते। यदा इतिहासः शिलासु उत्कीर्णः भवति तदा प्रामाणिकता ज्ञातव्या भवति। तर्हि अस्मिन्नेव सन्दर्भे भारतीय पुरातात्विक धरोहरस्य संरक्षणे संस्कृत अभिलेखानां का भूमिका।
शिलासु तथा अन्येषु पदार्थेषु उत्कीर्णाः अभिलेखाः इतिहासस्य अत्यन्तं प्रामाणिकाः प्रलेखाः सन्ति। एते अभिलेखाः विविधासु प्राचीनासु भाषासु लभ्यन्ते, यहि इतिहाससम्बद्धाः अत्यन्तं स्पष्टाः च सूचनाः प्राप्यन्ते। अनेके महत्वपूर्णाः प्राचीनाः अभिलेखाः संस्कृतभाषायामेव उत्कीर्णाः सन्ति। तेषां पठनेन एतादृश्यः सूचनाः लभ्यन्ते याः अन्यैः कश्चित् अपि श्रोतभिः न उपलब्धाः भवन्ति। संस्कृत अभिलेखाः भारतीय इतिहासस्य प्रामाणिकतां स्थापयितुम् अत्यन्त उपयोगिनः सिद्धाः सन्ति। अतः भारतीय पुरातात्विक धरोहरस्य संरक्षणे संस्कृतभाषायाः तथा संस्कृत अभिलेखानां भूमिका अतीव महत्वपूर्णा अस्ति।
महोदय, भवद्भिः प्रतिपादितं यत् संस्कृतसाहित्यम् इतिहासस्य प्रमुखं प्रामाणिकं च स्रोतः वर्तते। यदा इतिहासः शिलासु उत्कीर्णः भवति तदा प्रामाणिकता ज्ञातव्या भवति। तर्हि अस्मिन्नेव सन्दर्भे भारतीय पुरातात्विक धरोहरस्य संरक्षणे संस्कृत अभिलेखानां का भूमिका।
प्राचीनकाले घटितानां बहुनां महत्वपूर्णानां विषयाणां सूचनाः संस्कृतग्रन्थेभ्यः एव प्राप्यन्ते। पुरातात्विक उत्खननेन प्राप्ताः अवशेषाः प्रायः अत्यन्तं सीमिताः तथा विनष्टावस्थायाम् एव भवन्ति, यै सहस्रवर्षेभ्यः पूर्वं घटितानां घटनानां व्यक्तीनां स्थानानां च प्रामाणिकरूपेण परिचयः अत्यन्तकठिनं भवति। परन्तु संस्कृतसाहित्ये उपलब्धाभिः सूचनाभिः एतेषाम् अवशेषाणां विश्लेषणस्य यदा समन्वयः क्रियते तदा तेषां परिचयः तथा उपयोगिता स्पष्टा जायते। उदाहरणस्वरूपेण प्राचीनसाहित्ये अनेकेषां स्थानानां नामानि विवरणानि च लभ्यन्ते। एतेषां स्थलेषु उत्खननेन प्राप्तानाम् अवशेषाणां यदि साहित्ये वर्णिताभिः सूचनाभिः सह मेलनं क्रियते तर्हि तेषां स्थानानां स्वरूपं परिचयः उपयोगः च अधिकतया सम्यक् रूपेण अवगन्तुं शक्यते। अतः निस्सन्देहं वक्तुं शक्यते यत् संस्कृतग्रन्थाः पुरातात्विक अध्ययनेषु निर्णायकं भूमिकां निर्वहन्ति।
एतत् तु सत्यमेव यत् संस्कृतस्य आलोकः यदा प्राप्यते तदा इतिहासः सजीवः जायते। अस्मिन्नेव सन्दर्भे जिज्ञासा वर्तते यत् पुरातात्विक अनुसन्धाने संस्कृतग्रन्थानां मार्गदर्शनं भवतः अनुभवे कथम् उपयुक्तम्?
अस्मिन् अवसरे अहम् आकाशवाणी माध्यमेन केवलम् एतदेव वक्तुम् इच्छामि यत् भारतस्य इतिहासः प्राचीनः समृद्धः च अस्ति, यस्मिन् इतिहासे अद्यापि अनेके पक्षा अनेकानि क्षेत्राणि अवगन्तुं शेषाणि सन्ति। पाश्चात्यसंस्कृतेः प्रभावेण वयं स्वभाषां विस्मृत्य स्वस्वमूलेभ्य दूरं गतवन्तः। भाषाज्ञानस्य अभावे प्राचीनग्रन्थेषु निहितं ज्ञानभाण्डारं वयं सम्यक् रूपेण अवगन्तुं न शक्नुमः। कस्तूरीमृगसदृशां वयं स्वीय एव भाषासु निहितं ज्ञानभण्डारम् अपरिज्ञाय वैदेशिकभाषाणां वैदेशिकज्ञानानां तृष्णयां धावामः। इदानीं समयः आगतः अस्ति यत् वयं स्वदेशे स्वभाषासु एव निहितानां ज्ञानविज्ञानयोः सुगन्धानां श्रोतांसि जानीयां, तानि च प्राप्तुं प्रयतामहे। संस्कृतभाषाज्ञानं न केवलम् अस्मान् स्वसंस्कृत्या परम्पराभिः च संयोजयति अपि तु ज्ञानविज्ञानस्य या सम्पदा अस्ति तया सह अपि अस्मान् संयोजयति। समग्रस्य विश्वस्य कल्याणं कर्तुं समर्था अस्ति एषा भाषा।
महोदय, भवता साकं संवादेन अस्माकं श्रोतारः संस्कृतभाषायाः ऐतिहासिकं वैज्ञानिकं च महत्त्वं ज्ञातवन्तः। भारतीय पुरातात्विक धरोहरस्य संरक्षणे संस्कृतस्य अनिवार्यता अपि स्पष्टा जाता। इतिहासस्य आचार्यरूपेण भारतीय पुरातत्व सर्वेक्षणस्य अपर महानिदेशकस्य च रूपेण भवतः अनुभवः अस्माकं कृते अत्यन्तं प्रेरणाप्रदः अस्ति। आकाशवाण्याः पक्षतः भवतः हार्दिकीं कृतज्ञतां ज्ञापयामः। पुनः कस्मिंश्चित् अपि संस्करणे भवद्भिः साकं संवादः स्यात् इति कामयामहे।
अहम् आकाशवाण्याः कृते तथा डाक्टर् साधना शर्मा महोदये भवत्याः कृते सहृदयं कृतज्ञतां ज्ञापयामि यै मम विचारान् प्रकटयितुम् अवसरं प्राप्तः। तथैव असम विश्वविद्यालये संस्कृतविभागस्य सह आचार्यस्य डाक्टर् गोविन्दशर्मणः कृते धन्यवादान् अर्पयामि येन संस्कृतसाप्ताहिकी कार्यक्रमे मम विचाराणां संस्कृतभाषायाम् अभिव्यक्तौ अनुवादसहायता कृता। नमः सर्वेभ्यः।
अयि रसिकाः श्रोतारः, आगच्छन्तु संस्कृतदिग्दर्शनप्रभागे, यत्र विश्वे संस्कृतसंवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीय सहयोगी गणेश हेगडे।
केन्द्रीय संस्कृत विश्वविद्यालये विभिन्नेषु स्नातकोत्तर व्यावसायिक पाठ्यक्रमेषु प्रवेशार्थं CUET PG 20-26 इत्यस्य माध्यमेन आवेदनानि आमन्त्रितानि सन्ति। प्रवेशपरीक्षा NTA इति राष्ट्रिय परीक्षण अभिकरणद्वारा आयोजयिष्यते। आवेदनानि पूरयितुम् अन्तिमा तिथिः जनवरी मासस्य 14 दिनाङ्कः वर्तते। भारत सर्वकारस्य शिक्षा मन्त्रालयेन अथ राष्ट्रिय पुस्तकन्यासेन च विगत मार्च मासे आरब्धायां प्रधानमंत्री युवा लेखक मार्गदर्शन योजनायां संस्कृत विषये सम्पूर्णे देशे एकमात्र चयन रूपेण केन्द्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरस्य छात्रः नरेन्द्र प्रताप सिंहः चयनितः। नरेन्द्र प्रताप सिंहस्य विशिष्टोपलब्धये कुलपतिः प्रोफेसर श्रीनिवास वरखेडीवर्यः अथ जयपुर परिसरस्य निदेशकः प्रोफेसर रमाकांत पाण्डेयः सगर्वं हर्षं प्रकटितवन्तौ। वेरावलस्थे श्री सोमनाथ संस्कृत विश्वविद्यालये ऐषमः शोध कार्यशालायाः समापन सत्रं कुलपतेः प्रोफेसर सुकांत कुमार सेनापतिवर्यस्य आध्यक्षे सुसम्पन्नम्।
ऐ संस्कृत समाराधकाः, अधुना कार्यक्रमस्य अग्रे बालवल्लरी प्रभागे बालानां सुखबोधाय आत्मानुरञ्जनाय च सुषमा कुमारी प्रस्तौति एकां रुचिकरां कथाम्।
बालाः अद्यस्तनीये बाल मनोवल्लरी संस्करणे अहम् साधु स्वभावः इत्यस्मिन् विषयम् आधृत्य एकां कथां श्रावयिष्यामि। एकस्मिन् उपवने स्थिताः आम्रवृक्षाः परस्परं वार्तालापं कुर्वन्तः आसन्। यत् मनुष्याः तेषां पक्वानि फलानि त्रोटयित्वा नयन्ति, परन्तु कृतज्ञतायाः एकम् अपि शब्दं तान् प्रति नैव कथयन्ति। अहो, तेषाम् इमां कृतघ्नतां धिक् धिक्। वृक्षाणां समीपतः निस्सरन् कश्चित् पथिकः तेषाम् इमां वार्तां श्रुतवान्, किञ्चित् तत्र स्थित्वा च तान् अब्रवीत्, अस्मिन् भवद्भ्यः कृतज्ञतायाः प्रकाशनस्य का वार्ता? भवतां स्वभावः फलोत्पादनम्, तद्भवद्भिः क्रियते, करिष्यते अपि च एव। इयं भवदीया विवशता, पुनः विवशतायाः लाभं कः न गृह्णाति इति कथयित्वा सः अग्रे प्रस्थितः। इति साधुः स्वप्रकृते त्यागं कुरुते न कदाचन, एतद् वैवश्यस्तस्य लाभं गृह्णाति को नहि। अर्थात् सज्जन अपनी प्रकृति का त्याग नहीं करता है और उसका विवशता से लाभ कौन नहीं लेता है।
प्रियाः श्रोतृवृन्दाः, अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतमिति। यस्मिन् प्रभागे नानाविध वाक्यानि ऐक्यभावयुतासु भाषासु प्रस्तूयते कृष्णप्रसादोपाध्यायेन।
प्रथमं वाक्यं। डिसेम्बर मासस्य 25तमः दिनाङ्कः भारतस्य प्राक्तन प्रधानमन्त्रिणः अटल बिहारी वाजपेयी वर्यस्य जन्मदिवसोऽपि वर्तते। दिसम्बर महीने की 25वीं तारीख भारत के पूर्व प्रधानमंत्री अटल बिहारी वाजपेयी जी का जन्मदिन भी है। दिसंबर महीना को 25 तारीख भारत का पूर्व प्रधानमंत्री अटल बिहारी वाजपेयी जी को जन्मदिन पनि हो। श्रीमान अटल बिहारी वाजपेयी वर्यः उत्कृष्टतमस्य राजनेत्रा सह उन्नत श्रेण्याः कविरपि आसीत्। श्री अटल बिहारी वाजपेयी जी उत्कृष्ट स्तर के राजनेता के साथ साथ उन्नत श्रेणी के कवि भी थे। श्रीमान अटल बिहारी वाजपेयी जी उत्कृष्ट श्रेणी का राजनेता होने का साथ साथ उन्नत श्रेणी का कवि पनि हुनुहुन्थ्यो। तृतीयं वाक्यं। श्रीमतः अटल बिहारी वाजपेयी वर्यस्य प्रधानमन्त्रित्व काले समारब्धा राष्ट्रिय राजमार्गाणां संयोजनस्य प्रधानमन्त्री चतुर्भुज योजना एका उन्नततमा योजना आसीत्। श्रीमान अटल बिहारी वाजपेयी जी के प्रधानमंत्रित्व काल में शुरू हुई राष्ट्रीय राजमार्गों के जोड़ने की प्रधानमंत्री चतुर्भुज योजना एक उन्नत श्रेणी की योजना थी। नेपाली भाषायां श्रीमान अटल बिहारी वाजपेयी जी को प्रधानमंत्रित्व काल में शुरू भएको राष्ट्रीय राजमार्गहरुको जोड़ने कार्यक्रम प्रधानमंत्री चतुर्भुज योजना एउटा उन्नत श्रेणी को योजना थियो। अद्य वयम् सश्रद्धम् वाजपेयी वर्यम् स्मरामः। धन्यवादः।
प्रियाः श्रोतारः, आगता गमन वेला अधुना, किन्तु आगामि सप्ताहे पुनर्मेलिष्यामः इति अस्ति मे वचनम्। तावत्पर्यन्तम् भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियाम् अस्मभ्यं प्रेषयितुं शक्नुवन्ति। अस्माकं ईमेल संकेतो वर्तते nst@gmail.com इति। नमो नमः। नव वर्षस्य हार्दाः शुभकामनाः।